अनस्वन्ता सत्पदिर्मामहे मेघा वाचे जिष्ठो असुरो मघुनाः श्रीविष्णोऽग्ने दशभिः सहस्रैर्वैश्वानरत्र्यरुणश्चिकेत यो मे सदा च विंशतिम् जगोनाम् हरी च युक्ता सुधुरा दधाति वैश्वानरसृष्टोतो वा वृधानोऽग्ने यच्छत्र्यरुणाय शर्म एवाते अग्ने सुमतिम् च कानो न विष्ठाय नवमन्त्रसदस्युः यो मे गिरस्तु विजातस्य पूर्वीर्युक्तेनाभित्यरुणो गृणाति यो मयिति प्रवोचत्यस्व मेधाय सूरजे ददधृजासनिम् यते सजन् मेधामृतायते यस्य मावरुषा सदमुद्धर्षयन्त्युक्षणाः अश्वमेधस्य दानाः सोमाजिवत्याशिरः इन्द्राग्निः स ददाम्यश्वमेधे सुवीर्यम् क्षत्रम् धारयतम् बृहद्दिवि सूर्यमिवाजनम् समिद्धो अग्निर्दिवि रोचिरश्रेत्प्रत्यङ्गुरुदमुर्भियाभिभाति ये दिप्राजी विश्ववारा नमोभिर्देवाङ्गीलानाहविषा घृताजी समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तम् सजसे स्वस्तये विश्वम् सधत्ते द्रविणम् जमिन्वस्याधिध्यमग्नेन च धत्तयित्पुरः अग्ने सर्धमहते सौभागाय तवद्युम्नान्युत्तमानि सन्तु सञ्जास्पत्यम् सुजममाग्रेणश्वशत्रुजतामभितिष्ठामहांसि समिद्धस्य प्रमहसोऽग्ने वन्दे तपःश्रियम् ऋषभोद्युम्नवाङ्गसि समध्वरेष्विध्यसे समिद्धो अग्नाहुतदेवान्यक्षिस्वध्वर त्वम् हि हव्यवालसि आजुहोतादुपश्यताग्निम् प्रयत्यध्वरे वृणीध्वम् हव्यवाहनम् त्रर्यमामनुषो देवता दात्रीरोचनाधिव्याधारयन्त अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामिषीरिन्द्रासि धीराः अनुयदीम् मरुतो मन्दसानमार्चन्निन्द्रम् पभिवांसम् सुतस्य आदत्तवज्रमभियदहिंहन्नपो जह्वीरसृजत्सर्पबाहु उत ब्रह्मानो मरुतो मे अस्येन्द्रस्वमस्य सुहृतस्य पेयाः तदधि हव्यम् मनुषेका अविन्दलहन्नहिम् पभिवाङ्गिन्द्रो अस्य आद्रोदशीवितरम् विष्कभागस्संविव्यानश्चिद्धियसे मृगम् काः जिगर्तिमिन्द्रो अपजर्गूरानः प्रतिश्वसम् तमपदानवम् हन् अधक्रत्वामगवन् तुभ्यम् देवा अनुविश्वे अददु सोमपेयम् यः सूर्यस्य हरितः पतन्ति पुरःसतीरुपराजेतशेकः न भजदस्य न पतिम् च भोगान् साकम् वज्रेण मघवा विवृश्चत् अर्चन्तीन्द्रम् मरुतः सधस्थेत्रैष्टुभे नवच सा बाधदद्या सखा सख्ये अवधत्तूयमग्निरस्य कृत्वा महिषा त्रिशतानि त्रिशाकमिन्द्रो मनुषस्वरांसि सुतम् पीभद्रत्रहत्याय सोमम् त्रियच्छतामहिषा नाम गोमा स्त्रीसरांसि मघवा सोम्यापाः कार्मविश्वे अह्वन्तदेवाभरमिन्द्राय यदहिम् जघान यत्सहस्यैरजातम् गृहमिन्द्रयूजुबाणेभिरस्मैः अन्वानो अत्र सरथम् यया सकुत्सेन देवैरवनोषसृष्णम् ्रवृहसूर्यस्य कुत्सायान्यद्वरी भोजादवेगः अनासोदस्योऽम्रमृणोपधेन निदुर्जो नावृणम् रुद्रवाचः सोमासस्वारोजीभीतेरवर्धन्नरन्धयो वैतधिनाज विप्रम् आत्मापिजिस्वासख्याय चक्रेपदम् भक्तिरपि भत्सोमामस्य न भग्वासः सुतसो मास इन्द्रम् दशग्वासो अभ्यर्थ्यम् चर्कैः द्रव्यम् त्रिदूर्वमभिधानवन्तम् चिन्नरस्य समाना अपव्रन् ततो देवरीतराणि विद्वान् वीर्यामघपञ्जा चकर्थ दासोऽनुनव्या गणवस्तविष्ठ प्रेदुदाते विदते शुभ्रवाम एता विश्वाचकृवान्द्रभूर्यवरीतो जरुषा वीर्येण याचिन्नवज्रम् गणवोदधिष्वान्नदे भक्तारविष्या अस्ति तस्याः इन्द्रब्रह्म क्रियमाणाजुषस्वजाते सविष्ठनव्या अकर्म अस्त्रेव भद्रा सुकृता वसूयोरथन्नधीरस्वपा अदक्षम् अस्य वीरम् को अवश्यरिन्द्रम् सुकरधमीयमानम् हरिभ्याम् यो राजा वज्रीशतोममिच्छन्ततो गोगन्ता पुरुहूतभूति अवाचदक्षम् परमस्य सस्वरुग्रन्वाजमिच्छन् अवृच्छमन्याम् उदधेम आहुरिन्द्रम् नरो बुबुधारा देव प्रणवयम् सुते याते कृतानीन्द्रब्रवामजानी नो युजोषः वेदविद्वान् शृणवच्च विद्वान् महतेजम् मघवा सर्वसेनः स्थिरम् मनश्च कृषे जातयन्द्रवेषीदेको युधये भुजसश्चित् अस्मानम् चिच्छवसादिद्युतो विहितो गवा मूर्वमुश्रियाणाम् परो यत्त्वम् परम आदिष्टाः परावति श्रुत्यम् नाम बिभ्रत् अतश्चिदिन्द्रादभयम् तदेवा विश्वा अपो अजयद्दासपत्नीः तुभ्येदेते मरुतः सुसेवा अर्चम् चर्कम् सुन्वन्त्यन्धाः अहिमोहानमपासजानम् प्रमाजाभिर्मालिनम् सक्षदिन्द्राः विषोमृतो जनुषादानमिन्वन्नहङ्गवामघवन्सञ्चकानः अत्रा दासस्य नमूचे शिरोजदवर्तयोवन वेगातुमिच्छन् युजम् हि मामकृथा आदिन्द्रशिरो दासस्य नमूचेर्मथायन् अस्मानम् चित्स्वर्या अम्बर्तमानम् प्रचक्रिये वरोदसी मरुद्भ्यः स्त्रियो हि दासायुधानि चक्रे जिम्माकरन्न फला अस्य सेनाः अन्तर्ह्यख्य दुहे अस्य धेने अथो पप्रैद्युधयेतस्विन्द्राः समद्रगापोभितो नवन्ते हेह वत्सैर्वियूताय दासन् सन्ता इन्द्रो असृजदस्य सागैर्यधीम् सोमासुषूतामन्दन् यदीम् सोमा बभ्रूतामन्तन्नरो रवीदृढमः सादरेषु पुरन्दरः प्रविवान्द्रो अस्य पुनर्गवामददादुश्रियाणाम् भद्रमिदम् वृषवा अग्ने अग्रङ्गवाम् चत्वारि ददः सहस्रा ऋणञ्जयस्य प्रजातामघानि प्रत्यग्रभेष्मृतमस्य नृणाम् सुपेद सम्मापसृजन्त्यस्तङ्गवाम् सहस्रैरुषमासो अग्ने तीव्रा इन्द्र मम मन्दः सुदासोक्तोऽष्टौ परीतज्ञायाः औच्छत्सरात्री परीतज्ञायाम् निरञ्जये राजनिरुषमाणाम् आद्यो न बाजी रघुरज्यमानो बभ्रश्चत्वार्य सरत्सहस्रा चतुःसहस्रम् गव्यस्य पश्वः प्रत्यग्रभीष्मरुषभेष्वग्ने घर्मश्चित्तप्तः प्रभृजेय आसीदयस्मयस्तम् वादामभिप्राः इन्द्रो रथाय प्रपदम् कृणोति य मध्यस्थान्मघवा वा जगन्तम् यूथेव पश्वोऽभ्यो नोति गोपारिष्टो याति प्रथमस्विषासन् आ प्रद्रवहरिभोमा विवेनः पिशङ्गराते अभिनस्वजस्व न हि त्वदिन्द्रवस्यो अन्यदस्य मेनांसि जनीवतश्च कर्थ उद्यत्सहस्रहसा जनिष्टते दृष्ट इन्द्र इन्द्रियाणि विश्वात् प्राचोदयत्सु दुघा भव्रे अन्तर्विज्योतिषा संवृत्तमो वः अनवस्तेरथमस्वायदक्षङ्कष्टावज्रम् पुरुहो दद्युमन्तम् ब्रह्माण इन्द्रम् महयन्तो अर्कैरवर्धयन्नः देहम् तवाभु पृष्ठे यत्ते वृषणो अर्कवर्षानिन्द्रग्रावाणो अदितिः सजोषाः अनस्वासो ये परयो रथा इन्द्रेषिताभ्यवर्तन् तदस्यूने प्रते पूर्वाणि करणानि वोचम् प्रणोत नामघवन्या चकर्थ शक्ति वो यद्विभरारोदसी उभेजयन्नपो मन भेदानुचित्राः तदिन्नु ते करणम् दस्मभिप्राहिम्यध्यन्नोजो अत्रावीमीताः सुष्णस्य चित्वरि माया गृह्णाः प्रभित्वम् यन्न पदस्योऽङ्ग्रशेषः त्वमवो यद वे दुर्वसाजारमयस्सुजुघाः पारयन्द्र उग्रमजातमवाहो हकुत्संसं भयद्वा कुशलारन्ददेवाः इन्द्राकुत्सामहमानारथेना वामत्या अपि कर्णे वहन्तु निःश्रीमध्योधमथो निःश्रधस्तान्मघो नो हृतो भरतस्तमांसि वादस्य युक्तान् सुजिरश्चिदस्वान् कविश्चिदेशो अजगन्नभस्युः विश्वेते अत्र मरुतः सखा जगिन्द्रब्रह्माणि तवीषीमवर्धन् सूरश्चिद्रथम् परितज्ञायाम् पूर्वम् रदुपरञ्जुजुवांसम् भरच्चक्रमेत सस्रम्रेणादि पुरो दधत्स निष्यति कृतम् नः आयम् जना अभिलक्षे जगामेन्द्रः सखायम् सुतसोममिच्छन् मदङ्ग्रावावेदिम् भ्रियादेकस्य हीरवद्भर्यवश्चरन्ति ये चाकरन्तचाकरन् तनूते मर्ता अमृतमोदे अम्भारन् वाबन्धि यज्ञोऽङ्कृततेषु धेष्यो योजनेषु येषु ते स्याम अदर्दरुत्समृजोऽभिकामि त्वमन्नवान्वद्भधानाः महान्तमिन्द्रपर्वतम् वियद्वश्रियो विधारापदानवम् हन् त्वमुत्साङ्गृतभिर्वद्वधानाम् भूतः पर्वतस्य वज्रिन् अहिञ्जिरुग्रप्रयूतम् सजानम् जघन्वाङ्गिन्द्रतवीषीमधत्ताः यस्य जन्महतो मृगस्य वधर्जघानतवीषीभिरिन्द्राः यजेकयितः प्रजन्मन्यमान आदस्मादन्यो अजनिष्ठतव्यानि चञ्चीरेषाम् स्वधया मदन्तम् विहो न पातम् सुबृहम् तमोघाम् बृहत्प्रभर्मादानवस्य भावम् वज्रेण वज्रीनिजघानसुष्णम् चञ्चीरस्य क्रतोभिर्निषत्तममर्मणो विदरिदस्य मर्म यदीन्द्रक्षत्रप्रभृतामदस्य युयत्सन्तम् तमासि हर्मेधाः चन्दीदित्थाकत्वयम् सयानवसूर्ये तमसि वावृधानम् तम् चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान उद्यजिन्द्रो महदेदानवायवधर्यमिष्टसहो अप्रदीतम् यदि वज्रस्य प्रभृतौ तदा भविष्वस्य चन्द्रोरथमम् चकार यन्निजर्णम् मधुपंसया नमसिन्वम् वव्रम् मह्यादुग्रह अपादमत्रम् मागतावधेन निधुर्योनावृणम् वृद्धवाचम् को अस्य दुष्पम् तवीषीम् वरादये को धनाः भरते अप्रदीतः इमे चेदस्य दृजसो नृदेवीन्द्रस्योजसोऽभियसा जिहाते न्यास्मै देवी स्वधीतिर्जिहीत इन्द्राय गातुरु सदीव येमे संयतो यो युवते विश्वमाभिरणुस्वधा मे क्षितयो नमन्त एवन्नत्वा सत्त्वं पाञ्चजन्यम् जातम् शृणोमि यशसञ्जनेषु तम् मे जगर्भ्र आससो न विष्टम् दोषावस्तोर्भवानास इन्द्रम् एवायित्वा मृदुता जातयन्तम् मघाभिप्रेभ्यो ददतम् शृणोमि किम् ते ब्रह्मानो गृहते सखा योजे त्वायानि ददुः कामामिन्द्र भद्रम् नो अपि वातयमनाः हरिः ॐ महीमहे तपसे दीर्घ्येरिन्द्रायेत्था तपसे अतौ यान् यो अस्मै सुमतिम् वाजसादौ स्तुतो जने समर्जस्थिकेन सत्त्वन्न इन्द्रभियसानो अर्कैर्हरीणाग्रमश्रेः या यत्थामघवन्नजोषम् वक्षो अभिप्रायः सक्षिजनान् न चेत इन्द्राभ्या अस्मदृष्ट्वा युक्तासो अब्रह्मदायसन् तिष्ठारसमधिकम् वज्रहस्तारस्मिन् देवयमसे स्वस्वाहा ब्रूयत्तायन्द्रजम् युक्थागवे जगर्थोर्वरा सुयुध्यम् लक्ष्ये सूर्याय चिलोकशिस्वे मृडा समत्सु दासस्य नामाचित् वयम् देत इन्द्रजे च नरः सर्धो यज्ञानायाताश्च रसाः आस्माम् जगम्यादहि सुष्पसत्त्वा भगो न हव्यः प्रभृतेषु चारुः वृक्षेण्यमिन्द्रत्वे योजो नृणानि च ऋतमानो अमर्तः स नयेनीम् वसवानो रयिन्दाप्रार्यस्तु हेतुविमघस्य दानम् एवान इन्द्रोतिभिरवपाधिगृणतः सूरकारून् उदत्मजम् ददतो वाजसादोऽपि प्रीमध्वश्रुतस्य चारोः उदत्ते मा पौरुकुत्सस्य सूरेस्त्रसदस्योभिरणिनोरराणाः वहन्तु मादसस्येतासो अस्य गैरीक्षितस्य क्रतुभिर्नुसस्ते उदत्ते मारुता स्वस्य सो नाः कृत्वा मघासो विदधस्य रातौ सहस्रा मेच्छवदानो ददानालोकवर्णो भूषेणार्चत् उदत्ये माध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुजोजदानाः मह्नारायः संवरणस्य ऋषेर्भजम् नगावप्रजता अभिग्मन् अजातशत्रुमजरास्वर्वत्यनुस्वधामीतादस्मीयते सुनोत न पचत ब्रह्म वाहते पुरुष्टुताय प्रतनम् दधातन आयः सोमेन जठरमपि प्रदामन्ततमघवामघो अन्धसः यदीलाय हन्त वे महावधः सहस्रभृष्टिर्मुषणावधम् यमत् यो अस्मै धन्स उदराय उधरि सोमम् सुनोति भवदिद्युवाङ्गः अपापचक्रस्तदनुष्टिमोहलि तनो शुभ्रह्मकः यः कवासकः य यस्यावधी पितरम् यस्य मातरम् यस्य शक्रो भ्रातरम् नादयीषते वेदीध्वस्य प्रयतायुधम् करो न किल्बीषादीषदेवस्व आकरः न पञ्चभिर्दशभिर्वक्ष्यारभन्नासंवदासजते पुष्यदाचन जिनादिवेदमुजाहन्ति वाधुनिरादे वयम् भजति गोमादिव्रजे वित्तक्षणः समृदौ चक्रमासतोषोरस्वन्भतो वृधः इन्द्रो विश्वस्य च पिता विभीषणो यथा वसन्नायतिदा समार्याः समीम् पनेर यति भोजनम् मुषे विदासुषे फलति सूनरम् वसु दुर्गे धनध्रीयते विश्वा पुरुषनोजो अस्य तमीषीमचुक्रुधत् संयज्जनौ सुधनौ विश्वसर्धसावभेदिन्द्रो मघभागोषु शुभ्रिषु युजम् या अन्यमकृतन्द्रवे पण्युदीम् गव्यम् सृजते सत्त्वभिर्धुनीः सहस्रसामाग्नीवे शृङ्गणेषे सत्रीमग्न उपमान् केतुमर्यः तस्मापः संयतः पीपयन् तदस्मिन् क्षत्रममावत्तेषमस्तु यस्ते साधिष्ठो वस इन्द्रक्रतुष्टमाभर अस्मभ्यम् दर्शणीसखम् सस्निम्बाजेषु दुष्टरम् यदिन्द्रते ततस्रो यच्छूरसन्ति तिस्रः यद्वा पञ्चक्षितीनामवस्तत्सुनाभर आते भोभरेण्यम् मृषन्दमस्य होमहे मृषादूरिजग्निर आभूभिरिन्द्रदुर्मणीः मृषाक्यशिराधसे यज्ञिरे वृष्णीरे सवाः स्वक्षत्रम् ते दृढन्मनः सत्राहमिन्द्रपौंस्यम् स्वन्दमिन्द्रवत्यममित्रयन्तमद्रिवः सर्वरथाशक्रतो नियाहि सवसस्पते स्वामिद्रत्रहन्तभजनासो वृत्तपरिषिषः उग्रम् पूर्वेषु पूर्व्यम् भवन्तेवाच साधये अस्माकमिन्द्रदुष्टरम् पुरोजावालमादिषु स जावानन्धने धने वाजयन्तमवासुतम् अस्माकमिन्द्रे हि नो रथमपापुरम् ध्यात् मयम् स विष्टवार्यम् दिविश्रवो दधीमहि दिविस्तोमम् मनामहे स आगमनिन्द्रो यो वसूनाम् चिके तद्दातुम् दामनोरधीनाम् धन्वचरो नवम् स गस्तृषानश्च कमानः पीपतु दुग्धमंसम् आदेहनो हरिवस्सु रेरुहस्वमोरपर्वतस्य पृष्ठे अनुद्वाराजन्नर्वतो न हिन्दम् घेर्भिर्मादेम पुरुहूत विश्वे चक्रण्ण वृत्तम् पुरुहूतमे पदेवनोऽभियामे अमतेन तद्रिवः यथा दधिद्वाजरिता सदामृतकुभिन्नस्तोरन्मधमन्पुरुवसुः एषग्रामेव जरिता च इन्द्रेयत्रिवाचम् बृहदाशुषाणः प्रसव्येन नखभण्यंसिराजप्रदक्षिणिद्धरिभोमाविवेनः मृषात्वा मृषाणम् वर्धतुद्यो मृषाभ्याम् वहसे हरिभ्याम् स नो मृषामृषारथस्तुति प्रमृषप्रदो मृषाभजृण्भेदाः यो नो भीतौ वाजिनो वाजिनीवान्निभिः सदैः स च मानापतिष्ठ यो ने समस्मै क्षिपयो नमन्ताम् सुतरसायमरुतो दुभोज सम्भारणा यदते सूर्यस्याजुह्वानो घृतपृष्टः स्वञ्चाः तस्मावृद्रावृतो व्योच्छान्य इन्द्राय सुनभामेत्याः समिद्धाग्निर्वणवस्येर्नवर्हिर्युक्तग्रावासुतसोमोजराते ग्रावानो यस्ये शिरम् वदन्त्यजदधर्यर्हविषावसिन्धुम् मधुरियम् प्रतिमिच्छन्ते दिययीमहादेवहि श्रीमशिरा ఆశ్రవ్యాఘోరాపరివర్తజాతి న స రాజాయస్మింద్రీవ్రం సోమం పిబతి గోసఖాయం ఆసత్వనైరజ జిహంతి వృత్రాం క్షేదిక్షితి సుభగో నామపుష్యన్ క్షేమే అభియోగే భవాద్యుభే వృతౌ సంజతి సంజయాతి ప్రియ సూర్యే ప్రియో అగ్నభవాది ఇంద్రాయ సుతసోమోదాసత్ పురోష్ట ఇంద్రనాథసో బిభీరాదిశ్రదక్రతో అధానో విశ్వజర్షణే ద్యుమ్నాసు క్షత్రమంభయ యదీరింద్రశ్రవాయ్యమిషం సమిష్టదధిషే అప్రథేదీర్ఘశ్రుత్తమం హిరణ్యవర్ణ దుష్టరం సుష్మాసో యేతే అద్దివో మేఘనా చేతసాపాః ఉభా దేవా భవిష్టజే దివశ్చగ్మశ్చ రాజసః ఉతో నో అస్య కస్య చిద్దక్షస్య తవ వృత్రహన్ అస్మభ్యం రమ్నమాభరాస్మభ్యం రమణస్యసే నూత ఆభిరవిష్టిస్తవ సర్మక్రదో ఇంద్రశ్యామసు గోపా సూరశ్యామసు గోపాంద్రచిత్రమేఘనాస్తిత్వాదాతమద్రివ రాధస్తన్నా విదద్వసౌభయాభర జన్మన్యదేవరేణ్యమింద్రజక్షందదాభర విద్యాపదస్య దేవయమగోపాలస్య దామనే యత్తే దిత్స ప్రరాధ్యం మనో అస్తి శ్రుతం బృహత్ తేల దృఢాచీదద్రి మహావాజం దర్శి సాతలే మం హిష్టం వో మఘో నాం రాజానం దర్శనీనాం ఇంద్రముపప్రశస్తలే పూర్వేభిర్జుషే గిరాః అస్మాజిత్కావ్యం వచ ముక్తమింద్రాయశంస్యం తస్మా బ్రహ్మ వాగసే గిరో వర్ధంత్యత్ర యోగిన శృంభంత్యత్రయ ఆదాహ్యద్రే విశ్రుతం సోమం సోమపదే పిబ వృషన్నేంద్రవృఢభిర్వృత్రహంతమ వృషాగ్రావృషాపదో వృషా సోమో అయం సుతః వృషన్నేంద్రవృఢభిర్వృత్రహంతమ ృఢాృఢనంభువే వజ్రం చిత్రాభిరుతి వృషన్నేంద్రవృఢభిర్వృత్రహంతమ జీషీ వజ్రీ వృషవస్తురాక్షుష్మీరాజావృత్రాసోమపాధ్యే మత్సదింద్ర యత్వాసూర్యస్వద్భాగస్తమసా విధ్యతాసురః అక్షేత్ర విద్యతా ముగ్ధో భువనాన్యదీధయో సద్భానో రథయజింద్రమాయా అవో దివో వర్తమానా అవాహన్ గూఢం సూర్యం తమసా పవ్రతేన దురీయేన బ్రహ్మణా విందదత్రీః మామిమంత వసంతమత్రైరస్యాద్రుభ్యోయసాణ్యారీత్ త్వం మిత్రోసి సత్యరాధాస్తౌ మేహావతం వరుణశ్చ రాజా గ్రామో బ్రహ్మాయుయుజానస్య పర్యంకీరిణా దేవాన్నమసోపశిక్షన్ అద్రిః సూర్యస్య దివిచక్షురాధాత్ స్వర్భానోరపమాయాధుక్షత్ యం వై సూర్యం స్వర్భరస్తమసా విధ్యతాసురః అత్రయస్తమన్వామిందన్నహ్యా అన్యే అశక్నువన్ కోనువాం మిత్రావరుణామృతాయంతి వో వా మహః పార్థివస్య వాదే ఋతస్య వాసద సిద్ధాసీధాన్నో యజ్ఞాయతే వా పశుభో న వాచాన్ ఏనో మిత్రో వరుణో అర్యమాజురింద్రర్భుక్ష మరుతో జుషంత నమోభిర్వాజే దధతేసు వ్యక్తిం స్తోమం రుద్రాయ మీషే సజోరాః आवाम ज्येष्ठास्विनाहुवध्यैवादस्य पद्मन्रक्षस्य पुष्टौ उदादिवासूराजमन्मप्रान्धांसि वयज्य वे भरध्वम् प्रदक्षणो दिव्यः कण्वहोदातृजो दिवस्रजो रावादो अग्निः पूषा भगः प्रभृते विश्वभोजा आदिन्नजग्मुरास्वस्वनाः प्रवो रयम् युक्तास्वम् भरध्वम् राजेशेव सेदधि तधीः सुसेवये वैरौषिजस्य होताजे वये वा मरुतस्तुराणाम् प्रभो वायुम् रथयुजम् कृणध्वम् रदेवम् विप्रम् परिकारमर्कैः शुद्ध्यवरुदसामः पुरम् धेर्वस्वीर्नो अत्र पत्नीराधिजेधुः उपपजेषेवन्देभिः सूषैः प्रयक्ष्मीरिवश्चिरयद्भिरर्कैः उषासा नक्ता विदुषीव विश्वमाहावहतो मत्याय यज्ञम् अभिवो अर्चे पोष्यावतो नृन्वासोष्मदिन्द्रष्टारम्भराणः धन्यासजोषाधिषणा नमोभिर्वनस्पतीम् रोषधीराजयेः तुजेनस्तने पर्वताः सन्तस्वैतभोजेव स भो न वीराः परिदात्योजसदा नो बद्धान्नस्वम् सौन्दर्यो अभीष्टौ विष्णो अस्तोषि भूम्यस्य गर्भम् त्रितो न पादमपांसु वृत्ति वृणीते अग्निरेतरेण सूषैः सोऽतिष्के सोऽनिरीनाधिपनाः कथा महे रुद्रियाय ब्रवामकद्राये चि किदुषे भगाय आपोषधीर्वन्धुद्यौर्वना गिरयो वृक्षकेशाः शृणोदूरभूर्जाम्बधिर्गिरस्तनवस्तरीयाङ्गिषिरः परिज्वा शृण्वन्त्वा वःपुरो न शुभ्राः परिसृजो बृहाणः स्याद्रेः विदा जिन्नुमाहान्तो देवये वा ब्रवामदस्मा वा जन्दधानाः वयश्च न शुभ्वा आवयन्दिक्षुभावर्तमनूयतम् वधस्मैः आयीर्यारिवार्थीवा निजन्मा पश्चाच्छासुमकायवोचनम् वर्धन्ताम् जाभोगिरश्चन्द्राग्रा उदावर्धन्तामभिरादार्णाः पदे पदे मे जरिमानिधा युवरोत्रीवा शक्राया पाजुभिश्च शिषक्तुमातामहीरदानस्मत्सोरिभर्वयुगस्तुवणीः कथादासे मनमासा सुतानो ने वया मरुतो अच्छोक्तौ प्रश्रावसो मरुतो अच्छोक्तौ मालोहिर्बुद्ध्यो ऋषेधादस्माकम् भूदुपमाधिवणीः इति चिन्नु प्रदानी पशुपत्यैरे वा सोमनदे मर्त्यो वा देवा सोमनदे मर्त्यो वः अत्रा शिवाम् तन्वो धाशिवस्याधराम् चिन्मे निर्विर्जिरसीत ताम् वो देवाः सुमतिमूर्जयन्तीमिषमस्यामवसभस्वसारोः सा नः सुतानुर्मृणयन्ती देवी प्रतिद्रवन्ती श्रीराजगम्याः अभिनयिलायूथस्य मालास्मन्नदीभिरुर्वशीवागृणातु उर्वशीवा बृहद्दिवागे नाराभ्योन्वारा प्रभृतस्यायोः शिषक्तुरवोद्यव्यस्य पुष्टेः प्रसन्तमावरो नन्दीधिमित्रम् भगवदीजम् नो नमस्याः ऋणद्यो निः पञ्च होता शृणोत्तपन्थासूरोपयोभुः प्रदीपे स्तोममदीगर्जगृभ्यात् सूनम् न माता हृद्यम् सुदेवम् ब्रह्मप्रियम् देवहीतम् यदस्यहम् मित्रे वरुणे जन्मयोभुवीरजकविता पङ्कवीरा मुदत्तेनमभिमध्वा धृतेन सनामसो निप्रजता हितानी चंद्राणी देवस्य वितासु वाति समिंद्र नोमना जाने दिगो भिस्तम सूर्यभिर्हरि भस्तम स्वस्ति सम ब्रह्मणा देवहि तं यदस्ति सं देवानां सुमत्यायज्ञानाम् देवो भगस्य पिता राजो अंस इन्द्रो वृत्रस्य सञ्जितो धनानाम् भुक्तावाच उत वापुरम् धिरवन्तु नो अमृतादस्तु राजाः मनुत्वादो अप्रदीदस्य जिष्णो रजोर्यदप्रभ्रवामा घृतानि अजे पूर्वे मघवन्नापरासो न वीर्या अन्नोद न कश्चनाप उपस्य यत्प्रथमम् रत्नधेयम् बृहस्पतिम् स निदारन्धनानाम् यः संसारे सुभदे सम्भाविष्टः पुरोवसु रागमज्जोः बालम् प्रभोतिभिश्च च मानाहरिष्टा बृहस्पते भगवानः सुवीराः ये अश्वदा उदभा सन्ति गोदाये वस्त्रदा सुभगास्ते शुरायाः विशर्माणम् गृणी वित्तमेषाम् ये भुञ्जते अभृणन्तो न भुक्तैः अपव्रतान् प्रसवेवा वृधानान् ब्रह्मद्विषः सूर्याद्यावयस्व यवोहते रक्षसो देववीतावचक्रेभिस्तम् मारुतो नियात यो अश्वमीम् ससमानस्य निन्दात्तुच्छान् कामान् करदे सुष्विधानः नमुष्टु हियस्विषुधन् वायो विश्वस्य क्षयतिभेषजस्य यजमहेतौ मनसाय रुद्रम् नमोभिर्देवमसूरम् दुवस्य दमो नसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्योभिद्भुदष्टाः सरस्वती बृहद्दिवोदरागादस्यन्दीर्वरिवस्यन्तु शुभ्राः रसो महेशो शरणाय मेघाङ्गिरम् भरेणव्यसीम् जायमाना जहाहनादो हितुर्भक्षणा सुरूपामि नानो अग्रेणो लिखम् नाः प्रदृष्टति स्तनयम् तम् रुवन्तमिनस्पतिम् जनितर्नो नमस्याः योऽद्धिवाङ्गुदधिवाङ्गुक्षमाणः येन स्तो भवानो तम् सद्धो अच्छा रुद्रस्य सूनो योऽरण्यो मृतस्याः कामो राजेह वदेवा स्वस्ति वस्तु हिवृषदस्वायासाः प्रेणस्तव पृथिवी मन्दरिक्षम् वनस्पतीम् कृणधीराजे अस्याः देवो देव सुभवो भूत मह्यम् मानो माता पृथिवी दुर्मरोधादि गुरो देवानि बाधे स्याम समस्विनो रवसा नूतनेन मजो भुवा सुप्रणीतिगमेव आनो रयम् वहतमोद वीराणामिश्वान्यमृता सौभागानि आधेनवप्रजसानूर्ण्यर्था अमर्धन्ति रूपानो यन्तु मध्वा महो राजे बृहति सप्तविप्रो मयोभोजरिताजो हवीति आदृष्टतीरमसावर्तयध्येत्या भावाजाय पृथिवी अमृधे पिता माता मधुपचा स्वहस्ता भरे भरेणो यशसा भविष्टा अध्वर्यवश्च ग्रवाम् सोमधो निप्रभाजवे भरतचारु शुक्रम् हो देवनः प्रथमः पाह्यस्य देवमध्वोरनिवा देवदाय दशक्षिपो युञ्जते बाहु अध्यम् सोमस्य जलसमितारा सुखस्ता मध्वोरसम् सुखमस्तिर्गिरिष्टान्तनिश्चलद्दुदुहे शुक्रवंशुः असाविदे जुषाणाय स भक्त्वे रक्षाय बृहते मदाय हरिरथे सुधरायोगे अर्वागीन्द्रप्रजाणि भूयमानः आनो महीवरमतिम् सजोषाग्नाम् देवीम् नमसरातहूयाम् मधोर्मदाय बृहति वृतज्ञामाग्ने प्रजानैः अञ्जन्तियम् प्रथयन्तो न विप्रापपावन्तान्नाग्निनाथवन्तः पितृर्नपुत्र उपसि प्रेषा घर्मो अग्निमृतयन्न सादि अच्छामही गृहति सन्त मागे दूतोऽनगम् त्वस्विनाहुवध्यै अजोभुवा सरथायातमर्वा ग्रन्थम् निधिम् दुरमालिर्ननाभिम् प्रथमजसो नम भुक्तिम् दुरस्याहम् वोष्णभुतभाजो न दीक्षि याराधराजोऽधिकारामदीनाम् यावाचस्य द्रविनोदाहुतत्वम् आनामभिर्मरुतो वक्षिभिस्वानारूपेभिर्जातवेदोहुवानः यज्ञम् गिराजरितसृष्टितिम् च विश्वे गन्धमरुतो विश्वभूति आनो दिवो बृहतः पर्वतादा सरस्वतीयजदागम् यज्ञम् अहम् देवीयोजुराजा घृताजी सग्मान्नो वाचमुसती शृणोतु आवेदसमीलवृष्टम् बृहन्तम् बृहस्पतिम् सदने सादयध्वम् सावद्यो निन्दमादी जिवाम् संहिरण्यवर्णमरुषम् स प्रेम आधम् नतिर्बृहद्दि मोरराधो विश्वेभिर्गन्तो मभिर्भुवानः नामसाघोषधीरमृद्धस्त्रधातु शृङ्गो वृषभो वा योधाः मारुष्पदेव रमे शुक्र आयोर्विपन्यवो रास्विरासो अग्मन् सुसेव्यम् नमसा रातहौ यास्यम्रजन्त्याय भो नभासे बृहद्वयो बृहते लुभ्यमग्ने धियाजुरो विधुनासस्य चन्द देवो देवः सुभवो भूतमह्यम् मानो माता पृथिवी दुर्मदौ धात् उरौ देवानि बाधे स्याम समस्विनोरवसानूतने नमयो भुवा सुप्रणीतिगमेव आनो रयम् वहतमोदवीराणा विश्वान्यमृता सौभागामी